इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना महाराष्ट्रस्य सुदूरक्षेत्रे माओवाद प्रभावित क्षेत्रे च चतुर्दिक् विकासं सुनिश्चेतुं राजप्रशासनस्य प्रयासः प्रशंसितः। देशस्य उत्तरक्षेत्रे सघनकुज्झटिकया दृश्यतायां न्यूनतया च रेलयानसञ्चालनं प्रभावितम्। गणतन्त्रदिवसप्रयाणाय अथ च बीटिंग रिट्रीट इत्यस्मै टिकट इति प्रवेशानुमतिपत्राणां विक्रयः अद्य आरब्धः। अपि च हॉकी इंडिया लीग इत्यस्यां स्पर्धायाम् अद्य सूरमा हॉकी क्लब इति दलं यूपी रुद्रास इति दलेन सह क्रीडिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना महाराष्ट्रस्य सुदूरक्षेत्रे माओवाद प्रभावित क्षेत्रे च चतुर्दिक् विकासं सुनिश्चेतुं राजप्रशासनस्य प्रयासः प्रशंसितः। श्रीमोदी अवोचत् यत् एतैः प्रयासैः निश्चितरूपेण जीवन सुगमता एधिष्यते, तीव्रप्रगतेः मार्गश्च प्रशस्तो भविष्यति। अमुना विशेषरूपेण गढ़चिरौली क्षेत्रं निकषा जनाः वर्धापिताः। तत्र गतदिने एकादश नक्सलवादिभिः मुख्यमन्त्रिणः देवेन्द्र फडणवीस इत्यस्य समक्षम् आत्मसमर्पणं कृतम्। श्री फडणवीसः अवोचत् यत् अधिकसंख्यायां माओवादिनाम् आत्मसमर्पणेन महाराष्ट्रं शीघ्रं नक्सलसमस्या मुक्तं भविष्यति। अत्रावसरे मुख्यमन्त्रिणा गढ़चिरौली जनपदे महाराष्ट्र राज्य परिवहन निगमस्य 32 किलोमीटर मितस्य मार्गस्य उद्घाटनम् अपि कृतम्। प्रधानमन्त्री नरेन्द्रमोदी श्वः राजधान्यां नवदिल्ल्यां विविध विकास परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति। असौ दिल्ल्याः अशोक विहार क्षेत्रे 770,000 नवनिर्मित गृहाणाम् उद्घाटनं विधाय पात्रेभ्यः लाभार्थिभ्यः कुञ्जिका प्रदानं करिष्यति। सममेव श्रीमोदी दिल्लीनगरे पुनर्विकास परियोजनानाम् अपि उद्घाटनं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् ओपन नेटवर्क फॉर डिजिटल कॉमर्स ONDC इत्यनेन लघु व्यवसाय क्षेत्रे ई वाणिज्य क्षेत्रे च क्रान्तिः विहिता। सामाजिक सन्देश पटले श्रीमोदिना उक्तं यत् एतत् वृद्धिं समृद्धिं च वर्धितुं महत्वपूर्णां भूमिकां निभालयति। वाणिज्य उद्योग मन्त्रिणा पीयूष गोयलेन निगदितं यत् भारते ई वाणिज्यस्य लोकतन्त्रीकरणस्य दृष्ट्या मोदी प्रशासनेन 21,000 वर्षे ONDC इत्यस्य आरम्भः कृतः। सः अवदत् यत् विगतेषु त्रिषु वर्षेषु तेन अनेकानि लक्ष्यानि सम्प्राप्तानि, अथ च अन्तर्जाल मध्ये तेषां कृते समानं स्पर्धाक्षेत्रं निर्मीय व्यवसायाः विशेषतः लघु उद्यमाः सशक्ताः अभवन्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। देशस्य उत्तरक्षेत्रे सघन कुज्झटिकया दृश्यतायां न्यूनता दृश्यते। अनेन कारणेन नैकानि रेलयानानि प्रभावितानि। भारतीय रेलविभागानुसारं दिल्लीनगरं प्रत्यागम्यमानानि 43 यावत् रेलयानानि 5 होरापर्यन्तं विलम्बेन प्रचलन्ति। तेषु पद्मावत एक्सप्रेस, कालिंदी एक्सप्रेस, श्रमशक्ति एक्सप्रेस, महाबोधि एक्सप्रेस, आश्रम एक्सप्रेस, विक्रमशिला एक्सप्रेस, किफायत एक्सप्रेस इत्येतानि रेलयानानि सम्मिलितानि सन्ति। विभागेन यात्रिभिः निवेदितं यत् ते यात्रायाः प्राक् रेलयानानां स्थितिम् अवश्यम् अवलोकयन्तु। भारतीय जनता पार्टीति दलेन अद्य केन्द्रप्रशासनेन आरब्ध परियोजना विषये राष्ट्रिय राजधानी क्षेत्रे मार्गाणाम् आधारभूत संरचनायाः च विकासं प्रति निज प्रतिबद्धता पुनः प्रकटिता। नवदिल्ल्यां वार्ताहरान् समबोधयन् वरिष्ठ नेता केन्द्रीय मन्त्री च हर्ष मल्होत्रा अवोचत् यत् तेन सेन्ट्रल विस्ता इति भवनं मेट्रो मार्गेण सह संयोजयितुं केन्द्र प्रशासनं निवेदितम्। अनेन जनानां यात्रा सुखदा भविष्यति।
सेंट्रल विस्टा को भी मेट्रो से जुड़ना चाहिए ताकि जो ऑफिसर्स कर्मचारी और सभी स्टाफ है उन लोगों को भी सहूलियत हो और दिल्ली में जो ऑफिस आवर्स में आने का और ऑफिस से वापस जाने का जो जाम दिल्ली में लगता है जिससे प्रदूषण भी होता है उससे निजात मिल सके।
भाजपेति दलस्य नेता मनोज तिवारी अपि आम आदमी पार्टी दलम अधिक्षिपत् यत् आपदलेन राष्ट्रीय राजधान्यां विकास गतिः न्यूनतां याता।
हम डेवलपमेंट में विश्वास करते हैं मगर दुर्भाग्य से हम ये डेवलपमेंट भी विपरीत परिस्थिति में कर रहे हैं। दिल्ली में एक ऐसी सरकार है जिसका आधार ही झूठ है और लूट है, उसके बाद भी पीछे भी हमने आपने देखा चाहे वो द्वारका एक्सप्रेस हो, निश 24 हो, प्रगति मैदान का टनल हो, मेट्रो की जाल हो, तो हमारा ये उद्देश्य है कि हम लोग उनके नकारात्मक सोच को छोड़ करके हम थोड़ा आगे बढ़े।
ऋतु विज्ञान विभागेन अद्य पंजाब हरियाणा चंडीगढ़ दिल्ली अथ च उत्तर प्रदेशस्य कतिपय भागेषु मध्यरात्रौ प्रभाते च प्रबल कुज्झटिका प्रभावः अनुमानितः। सममेव हिमाचल प्रदेश, राजस्थान, मध्य प्रदेश, छत्तीसगढ़, हिमालयोपत्यकायुते, पश्चिम बंगाले, पूर्वोत्तर राज्येषु च श्वः यावत् समान स्थितेः संभावना विद्यते। आकाशवाण्या सह संवादे ऋतु विज्ञान विभागस्य वैज्ञानिकः सोमासेन रॉयः अवोचत् यत् जम्मू कश्मीर हिमाचल प्रदेशयोः सप्ताहन्तं यावत् प्रबल वृष्टेः, हिमपातस्य, प्रचंड वातेश्च संभावना वर्तते।
Currently there is a western disturbance. It is over Jammu and adjoining North Pakistan. This western disturbance is likely to give isolated snowfall activity mainly over the western Himalayan region today and tomorrow.
ऋतु विज्ञान विभागेन धीवराः अपि आगामी दिनद्वये मन्नार खात्याम्, कोमोरिन क्षेत्रे, दक्षिण पश्चिम बंगाल खात्याम्, दक्षिण पश्चिम अरब सागरस्य दक्षिण भागेषु च न गन्तुं परामृष्टाः। बिहारे नवनियुक्तेन राज्यपालेन आरिफ मोहम्मद खान इत्यनेन अद्य राज्यस्य द्विचत्वारिंशत्तमस्य राज्यपाल पदस्य गोपनीयतायाः शपथवचनं गृहीतम्। पटना उच्च न्यायालयस्य मुख्य न्यायाधीशः न्यायमूर्तिः के विनोद चन्द्रनः पटना नगरस्य राजभवने आयोजिते कार्यक्रमे तस्मै शपथवचनं कारितवान्। गणतंत्र दिवस प्रयाणाय अथ च बीटिंग रिट्रीट इत्यस्मै टिकट इति प्रवेशानुमति पत्राणां विक्रयः अद्य आरब्धः। रक्षा मन्त्रालयेन उक्तं यत् प्रवेशानुमति पत्राणि सेनाभवन, शास्त्रीभवन, जंतर मंतर, प्रगति मैदान, राजीव चौक चेति मेट्रो स्थासनेभ्यः मूल परिचय पत्राणि प्रदर्श्य क्रेतुं शक्यन्ते। एतदतिरिच्य आमंत्रण .mod.gov.in इति वेबफलकात् अथ च आमंत्रण मोबाइल ऐप इति चलदूरभाषीय तन्त्रात् अपि प्रवेशानुमति पत्राणि क्रेतुं शक्यन्ते। भारतेन भूकंपेन प्रभाविताय वानुआतु देशाय पुनर्वास पुनर्निर्माणादीनां प्रयासानां कृते पंचलक्ष डॉलर मितरूप्यकाणां साहाय्यं प्रेषितम्। गतमासे 17 दिनांके दक्षिण प्रशांत महासागरे वानुआतु देशस्य समीपं 7.43 तीव्रस्तरीयः भूकंपः अनुभूतः यस्मिन् प्रमुखतया जनधनहानिः जाता। भारतेन वानुआतु देशस्य जनान् प्रति गभीराः शोक संवेदनाः प्रकटिताः। अस्मिन् कष्टप्रद समये सर्वविध संभवं समर्थनं सहायतां च प्रदातुं स्वस्य प्रतिबद्धता अपि भारतेन प्रकटिता। हॉकी स्पर्धा मालिकायाम् अद्य राउरकेलायाः बिरसा मुंडा हॉकी क्रीडांगणे हॉकी इंडिया लीग इत्यस्याम् स्पर्धायाम् सूरमा हॉकी क्लब इति दलं यूपी रुद्रास इति दलेन सह क्रीडिष्यते। एषा स्पर्धा रात्रौ 8:00 PM आरप्स्यते। इति वार्ताः।